गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आन शृण्वन्नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवते धीरा पवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतो तैषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः यात इष शिवतमा शिवं बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृडया याते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशीः यामिषम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसे पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्चा वदामसि यथा नः सर्वमि जगत यक्ष्मगुं सुमना असत् अद्य वोच दधि वक्ता प्रथमो दैव्यो विशक अयेगुश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रस्व मङ्गलः ये चेमागुं रुद्रा अभितो दिक्ष श्रुता सहस्रशो वैशागुं हेडयीमहे असव्यो वसर्पतिनीलग्रेवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वा नोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्मियोर्ज्या याश्च देहस्त इषवः पराता भगवो वप अवतत्यतनुस्त्वगुम् सहस्राक्षशते सुदे नचेर्य शल्यानाम् मुखा शिवो न सुमना भव विर्यम् तनुः कपर्दिनो विशल्यो बाणवागुम् उदा अनेशन्नस्येशव आभुरस्य निषङ्गतिः याते हेतिर्मीदष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मय परिभ्युज नमस्ते अस्त्वायुधाय नातताय धृष्णवे उभाभ्यामुत ते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् मृणक्तु विश्वतः अथो ययि श्रुतिस्तवारे अस्मन्निदेहितम्
नमस्ते।
अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यवाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः। सस्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्लुषाय विव्याधिनेन्नानां पतये नमो नमो। हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो। भवस्य हेत्ये च गतां पतये नमो नमो। रुद्राय तथा विनेक्षेत्राणां पतये नमो नमः। सूताय हन्त्याय वनानां पतये नमो नमो। रोहिताय स्थपतये वृक्षाणां पतये नमो नमो। मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो। भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नम। उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नम। कृष्णवेताय धावते सत्त्वनां पतये नमः। नमः सहमानाय निव्याधिना व्याधिनीनां पतये नमो नमः। ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो। निषङ्गिण इषु धिमते तस्कराणां पतये नमो नमो। वञ्चते परिवञ्चते स्थायूनां पतये नमो नमो। निचेरवे परिचरायारण्यानां पतये नमो नमः। सकाविभ्यो जिगागुं सद्व्योमुष्णतां पतये नमो नमो। सिमद्भ्यो नक्तञ्चरद्भ्यः प्रकृन्तानां पतये नमो नम। उष्णेशिने गिरिचराय कुलुञ्चानां पतये नमो नम। इषु मद्भ्योदन्वाविभ्यश्च वो नमो नम। आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम। आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम। आसीनेभ्यः शयानेभ्यश्च वो नमो नम। स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमः। स्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः। सभाभ्यः सभापतिभ्यश्च वो नमो नमो। अश्वेभ्यो अश्वपतिभ्यश्च वो नमः। नमः व्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम। उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो। घृत्सेभ्यो घृत्सपतिभ्यश्च वो नमो नमो। भ्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो। गणेभ्यो गणपतिभ्यश्च वो नमो नमो। विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो। महद्भ्यः शुल्लकेभ्यश्च वो नमो नमो। रथेभ्यो रथेभ्यश्च वो नमो नमो। रथेभ्यो रथपतिभ्यश्च वो नमो नमः। सेनाभ्यः सेनानिभ्यश्च वो नमो नमः। शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः। कुलालेभ्य కర్మారేభ్యశ్చ వో నమో నమః పుంజిష్ఠేభ్యో నిషాదేభ్యశ్చ వో నమో నమః ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యశ్వనిభ్యశ్చ వో నమో నమః శ్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ క్షితికంఠాయ చ నమః కవర్దినే చ వ్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ క్షిపిహిష్టాయ చ నమో మేదుష్టమాయ చేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షేయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వరే చ నమో అగ్రయాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రయాయ చ శేభ్యాయ చ నమః ఊర్మ్యాయ చ వస్వన్యాయ చ నమః శ్రోతస్యాయ చ ద్వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్భాయ చ నమో జఘన్యాయ చ బుద్ధ్యాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ ఖల్యాయ చ నమః శ్లోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురథాయ చ నమః శూరాయ చావభిందతే చ నమో భర్మిణే చ వరోథినే చ నమో భిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో ధృష్ణవే చ ప్రభృషాయ చ నమో ద్యోతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేషుధిమతే చ నమస్తేక్ష్ణేశవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పథ్యాయ చ నమః కాత్యాయ చ నీప్యాయ చ నమః శోధ్యాయ చ సరస్యాయ చ నమో నాధ్యాయ చ వైషంతాయ చ నమః కౌప్యాయ చ వట్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేధ్యాయ చ విద్యుత్యాయ చ నమః ఏధ్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ హర 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 నమస్తోమాయ చ రుద్రాయ చ నమస్తామ్రాయ చ రుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వదాయ చ దూరే వదాయ చ నమో హంత్రే చ హనీయచే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమస్తేత్యాయ చ కౌల్యాయ చ నమః పార్యాయ చ వార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆతార్యాయ చ లాధ్యాయ చ నమః శస్ప్యాయ చ వేన్యాయ చ నమః సికత్యాయ చ ప్రవాహ్యాయ చ నమ హిరణ్యాయ చ ప్రపథ్యాయ చ నమ కేగం శిలాయ చ క్షయనాయ చ నమ కవర్ధినే చ పులస్తరే చ నమో గోష్ఠ్యాయ చ గృహ్యాయ చ నమస్తల్ప్యాయ చ గేహ్యాయ చ నమ కాత్యాయ చ గహ్వరేష్ఠాయ చ నమో హృదయ్యాయ చ నివేశ్యాయ చ నమ పాగం శవ్యాయ చ రజస్యాయ చ నమ శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చ లప్యాయ చ నమ ఊర్వ్యాయ చ శూర్మ్యాయ చ నమ పర్ణ్యాయ చ పర్ణశద్యాయ చ నమో పగురమాణాయ చ విఘ్నతే చ నమ ఆఖిదతే చ ప్రఖిదతే చ నమో వక్కిరికేభ్యో దేవానాగుం హృదయేభ్యో నమో విక్షేణకేభ్యో నమో విచిన్వత్కేభ్యో నమ ఆనిర్హతేభ్యో నమ ఆమీవత్కేభ్యః ద్రాపే అంధసస్పతే దరిద్రన్నీలలోహితా ఏషాం పురుషాణాం ఏషాం పశూనాం మాభిర్మా రోమో ఏషాం కించనామమత్ యాతే రుద్ర శివా తనో శివా విశ్వాః భేషజే శివా రుద్రస్య భేషజే తయానో మృడజీవసే ఇమాగుం రుద్రాయ తవసే కవర్దినే క్షయద్ధీరాయ ప్రభరామహే మతిం యథా నశ్యమసద్విపదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్ననాతురం మృడానో రుద్రోతనోమయస్కృతి క్షయద్వీరాయ నమసావిధేమతే యచ్చయోశ్చ మనురాయజే పితా తదశ్యామతవ రుద్ర ప్రణీతౌ మానో మహాంతముతమానో అర్భకం మాన ఉక్షంతముతమాన ఉక్షితం మానో వదే పితరం మోత మాతరం ప్రియమానస్తనో రుద్రరీరిషః మానస్తోకేతనయే మాన ఆయుషి మానో గోషు మానో అశ్వేశ్వరేరిషః వీరాన్మానో రుద్రవామితో వదే హవిష్మంతో నమసా విధేమతే ఆరాత్తే గోగ్న ఉత పూరుషగ్నే క్షయద్వీరాయ సుం నమస్మేతే అస్తో రక్షాజనో అధిచదేవ బ్రూహ్యథా జన శర్మ యచ్చ ద్విబర్హాః సుహిశ్రుతం గర్త సదయ్యవానం మృగండ భీమముపహత్నముగ్రం మృడాజరిత్రే రుద్రస్తవానో అన్యంతే అస్మన్నివ పంతు సేనాః పరిణో రుద్రస్య హేతర్వృణక్తు పరి త్వేషస్య దుర్మతిరఘాయోః అవస్థిరా మఘవభ్యస్తనుష్మేస్తౌకాయతనయాయ మృడయా మేడుష్టమ శివతమ శివో నశమనాభవ పరమే వృక్ష ఆయుధం నిరాయ కృత్తిం వసా న ఆచర పినాకం బిభ్రదాగహే వికిరిద విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం హేతయోన్యమస్మన్నివ పంతుతాః సహస్రాణి సహస్రధా బాహువోస్తవ హేతయః తాసామీశానో భగవః పరాచేనాముఖాకృతే సహస్రాణి సహస్రశోయే రుద్రా అధిభూమ్యా తేషాగుం సహస్రయోజనే వధన్వాని తన్మసి అస్మిన్ మహత్యర్ణవేంతరిక్షే భవా అధి నీలగ్రీవాశితి కంఠా శర్వా అధః శమాచరాః నీలగ్రీవాశితి కంఠాదివగుం రుద్రా ఉపశ్రితాః ಯೇ ವೃಕ್ಷೇಷು ಸಸ್ಪಿಂಜರಾ ನೀಲಗ್ರೀವಾ ವಿಲೋಹಿತಾಃ ಯೇ ಭೂತಾನಾಮಧಿಪತಯೋ ವಿಶಿಖಾಸಃ ಕಪರ್ದಿನಃ ಯೇ ಅನ್ಯೇಷು ವಿವಿಧ್ಯಂತಿ ಪಾತ್ರೇಷು ಪಿಬತೋ ಜನಾನ್ ಯೇ ಪಥಾಂ ಪಥಿ ರಕ್ಷಯ ಐಲಭೃತಾಯ ವ್ಯುತಃ ಯೇ ತೀರ್ಥಾನಿ ಪ್ರಚರಂತಿ ಸುಖಾವಂತೋ ನಿಷಂಗಿಣಃ ಯೇತಾವಂತಶ್ಚ ಭೂಯಾಗುಂಸಶ್ಚ ದಿಶೋ ರುದ್ರಾವಿತಸ್ಥಿರೇ ತೇಷಾಗುಂಸಹಸ್ರಯೋ ಜನೇವಧನ್ವಾನಿ ತನ್ಮಸಿ ನಮೋ ರುದ್ರೇಭ್ಯೋ ಯೇ ಪೃಥಿವ್ಯಾಂ ಯೇಂತರಿಕ್ಷೇ ಯೇ ದಿವಿ ಯೇಷಾಮನ್ನಂ ವಾತೋ ವರ್ಷಮಿಷವಸ್ತೇಭ್ಯೋ ದಶ ಪ್ರಾಚೀರ್ದಶ ದಕ್ಷಿಣಾ ದಶ ಪ್ರತಿಚೀರ್ದಶೋ ದೇಚೀರ್ದಶೋರ್ಧ್ವಾಸ್ತೇಭ್ಯೋ ನಮಸ್ತೇ ನೋ ಮೃಳಯಂತು ತೇಯಂ ದ್ವಿಷ್ಮೋ ಯಶ್ಚ ನೋ ದ್ವೇಷ್ಟಿತಂ ಭೋಜಂ ವೇದಧಾಮಿ ತ್ರ್ಯಂಬಕಂ ಯಜಾಮಹೇ ಸುಗಂಧಿಂ ಪುಷ್ಟಿವರ್ಧನಂ ಉರ್ವಾರುಕಮಿವ ಬಂಧನಾನ್ ಮೃತ್ಯೋರ್ಮುಕ್ಷೇಯಮಾಮೃತಾತ್ ಯೋ ರುದ್ರೋ ಅಗ್ನೌ ಯೋ ಅಪ್ಸುಯ ಔಷಧೇಷು ಯೋ ರುದ್ರೋ ವಿಶ್ವಾ ಭುವನ ವಿವೇಶ ತಸ್ಮೈ ರುದ್ರಾಯ ನಮೋ ಅಸ್ತು ಯೇತೇ ಸಹಸ್ರಮಯುತಂ ಪಾಶಾ ಮೃತ್ಯೋ ಮರ್ತ್ಯಾಯ ಹಂತವೇ ತಾನ್ಯಜ್ಞಸ್ಯ ಮಾಯಯಾ ಸರ್ವಾನವಯಜಾಮಹೇ ಮೃತ್ಯವೇ ಸ್ವಾಹ ಮೃತ್ಯವೇ ಸ್ವಾಹ ಪ್ರಾಣಾನಾಂ ಗ್ರಂಥಿರಸಿ ರುದ್ರೋ ಮಾ ವಿಶಾಂತಕಃ ತೇನಾನ್ಯೇನಾಪ್ಯಾಯಸ್ವ ನಮೋ ರುದ್ರಾಯ ವಿಷ್ಣವೇ ಮೃತ್ಯುರ್ಮೇ ಪಾಹಿ ತಮುಷ್ಟು ಹಿಯಶ್ವಿಶುಸ್ವಧನ್ವಾಯೋ ವಿಶ್ವಸ್ಯ ಕ್ಷಯತಿ ಭೇಷಜಸ್ಯ ಯಕ್ಷ್ವಾ ಮಹೇಶೋ ಮನಸಾಯ ರುದ್ರಂ ನಮೋ ನಿರ್ದೇವಮಸುರಂ ಧುವಸ್ಯ ಅಯಂ ಮೇ ಹಸ್ತೋ ಭಗವಾನ್ ಅಯಂ ಮೇ ಭಗವತ್ತರ ಅಯಂ ಮೇ ವಿಶ್ವವೇಶ ಯೋ ಜಗುಂ ಶಿವಾಭಿಮರ್ಶನಃ ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಓಂ ಶನಂ ಚ ಮೇ ಮಯಶ್ಚ ಮೇ ಪ್ರಿಯಂ ಚ ಮೇನು ಕಾಮಶ್ಚ ಮೇ ಕಾಮಶ್ಚ ಮೇ ಸೌಮನಸಶ್ಚ ಮೇ ಭದ್ರಂ ಚ ಮೇ ಶ್ರೇಯಶ್ಚ ಮೇ ವಶ್ಯಶ್ಚ ಮೇ ವ್ಯಸಶ್ಚ ಮೇ ಭಗಶ್ಚ ಮೇ ದ್ರವಿಡಂ ಚ ಮೇ ಯಂತಾ ಚ ಮೇ ದತ್ತಾ ಚ ಮೇ ಕ್ಷೇಮಶ್ಚ ಮೇ ಧೃತಿಶ್ಚ ಮೇ ವಿಶ್ಚಂಚ ಮೇ ಮಹಶ್ಚ ಮೇ ಸಂವಿಚ್ಚ ಮೇ ಜ್ಞಾತ್ರಂಚ ಮೇ ಶೋಶ್ಚ ಮೇ ಪ್ರಚೋಶ್ಚ ಮೇ ಸೇರಂಚ ಮೇ ಲಯಶ್ಚ ಮೃತಂಚ ಮೇ ಮೃತಂಚ ಮೇ ಯಕ್ಷ್ಮಂಚ ಮೇ ನಾಮಯಶ್ಚ ಮೇ ಜೀವಾತುಶ್ಚ ಮೇ ದೀರ್ಘಾಯುತ್ವಂಚ ಮೇನ ಮಿತ್ರಂಚ ಮೇ ಭಯಂಚ ಮೇ ಸುಗಂಚ ಮೇ ಶಯನಂಚ ಮೇ ಶೋಷಾಚ ಮೇ ಸುದಿನಂಚ ಮೇ ಓಂ ಶಾಂತಿ 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 ಓಂ ಅತ್ರಿನಾತ್ವಾಕ್ರಿಮೇ ಹನ್ಮೇ ಕಣ್ವೇನ ಶಮದಗ್ನಿನಾ ವಿಶ್ವಾವಸೋರ್ಬ್ರಹ್ಮಣಾ ಹತಃ ಕ್ರಿಮೇನಾಗುಂ ರಾಜಾ ಅಪ್ಯೇಷಾಗುಸ್ಥಪತಿರ್ಹತಃ ಅಥೋ ಮಾತಾ ಥೋ ಪಿತಾ ಅಥೋ ಸ್ಥೂರ ಅಥೋ ಕ್ಷುದ್ರ ಅಥೋ ಕೃಷ್ಣ ಅಥೋ ಶ್ವೇತ ಅಥೋ ಆಶಾಕಿಕಾ ಹತಾ ಶ್ವೇತಾಭಿಃ ಸಹ ಸರ್ವೇ ಹತಾ ಆಹಯಾವದ್ಯ श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य शम्भयो आददामि तथा हि तत् कन्प्रन् रचे ॐ शान्ति 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 ॐ निधनपतये नमः निधनपतान्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः सुवर्णलिङ्गाय नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः शर्वाय नमः शर्वलिङ्गाय नमः शिवाय नमः शिवलिङ्गाय नमः ज्वलाय नमः ज्वललिङ्गाय नमः आत्माय नमः आत्मलिङ्गाय नमः परमाय नमः परमलिङ्गाय नमः एतत् सोमस्य सूर्यस्य सर्वलिङ्गद्वस्थापय पाणिमन्त्रम् पवित्रम् सद्यो जातम् प्रवद्यामि सद्यो जाताय वै नमो नमः भवे भवे नाति भवे भवस्वमा भवोद्भवाय नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतगमनाय नमो मनोन्मनाय नमः अघोरेभ्यो तघोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यो सर्वसर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशानः सर्वविद्यानाम् ईश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्म शिवो मे अस्तु सदा शिवो नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये अम्बिकापतय उमापतये पशुपतये नमो नमः ऋगुं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु पुरुषो वै रुद्रस्तन्महो नमो नमः विश्वम् भूतम् भुवनम् चित्रम् बहुधा जातम् जायमानम् च यत् सर्वो हेश रुद्रस्तस्मै रुद्राय नमो अस्तु कद्रद्राय प्रचेतसे मेदुष्टमाय तव्यसे वोचे वसन्तमगुम् हृदे सर्वो एष रुद्रस्तस्मै रुद्राय नमो अस्तु ॐ शान्ति 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 धाता पुरस्ताद्यमुदाचार च चक्रः प्रविद्वान् प्रदिशश्च तस्रः तमेवं विद्वान् अमृत इह भवते नान्यः पन्था अयनाय विद्यते सहस्रशीरसं देवं विश्वाक्षं विश्वसंभुवं विश्वं नारायणं देवम् अक्षरं परमं पदं विश्वतः परमानित्यं विश्वं नारायणगुं हरिं विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवते पतिं विश्वस्यात्मेश्वरगुं शाश्वतगुं शिवमच्युतम् नारायणम् आज्ञेयम् विश्वात्मानम् परायणम् नारायण परो ज्योतिरात्मा नारायणः परा नारायण परम् ब्रह्म तत्त्वम् नारायणः परा नारायण परो ध्यात ध्यानम् नारायणः परः यच्च किञ्चिज्जगत् सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेऽन्तम् विश्वशम्भुवम् पद्मकोशम् प्रतिकाशगुम् हृदयम् चाप्यतो मुखम् अधो निष्ट्यावितस्यान्ते नाभ्यामुपरितिष्ठते ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत सन्ततगुम् शिलाभिस्तुलम् पत्याकोशसन्निभम् तस्यान्ते सुशिरगुम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्च विश्वतो मुखः सोऽग्रबुद्धिभजन् तिष्ठन्नारमजरः कवे तैर्यगोध्वमजश्याये रश्मयस्तस्य सन्तता सन्तापयति स्वम् देहमापादतलमस्तकः तस्य मध्ये वैनिशिका अनयोर्ध्वा व्यवस्थितः नीलतो यथ मध्यस्था विद्युल्लेके भवास्वरा नेवारशोकवत्तन्विपीताभा सत्यनोपमा तस्या शिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्मः स शिवः स हरिश्चेन्द्रः स्वोऽक्षरः परमस्वराट् कृतगुम् सत्यम् परम् ब्रह्म पुरुषम् कृष्णपिङ्गलम् ऊर्ध्वरेतम् विरूपाक्षम् विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॐ शान्ति शान्ति शान्तिः ॐ तच्छन्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति 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 सहस्रशीरसा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो हृत्वा अत्यतिष्ठद्दशाङ्गुलम् हरुषेवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् अतामृतत्वस्येशानः यदन्नेनातिरोहते एतावानस्य महिमा अथो ज्ञायागश्च पुरुषः पादोऽस्य विश्वभूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्द्वौदे पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत शासनानशने अभि तस्माद्विराट जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्म शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिदघ्रताः देवा यद्यज्ञन्तन्वानाः अवध्नन् पुरुषम् पशुम् तम् यज्ञम् वरेषि प्रोक्षन्न पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वभूतः सम्भृतम् वृषदाज्यम् पशुगुस्तागुश्चक्रे वायव्यान आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वभूतः ऋषस्रामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चो भयादतः गावो भजग्निरे तस्मात् तस्माजाता अजावयः यत्पुरुषम् व्यददुः कलिदा व्यकल्पयन् मुखम् किमस्य कौ बाहु का भूरूपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहोराजन्यः कृतः औरोतदस्य यद्वैश्यः पद्व्यागुंशोद्र अजायत चन्द्रमा मनसो जातः चक्षौ शौर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् श्रेष्णौ समवर्तत पद्भ्याम् भूमिर्निशस्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते भ्राता पुरस्ताद्यमुदा जहार चक्रः प्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् हे हनाकम् महिमानस्य चन्ते यत्र पूर्वे साध्यासन्ति देवाः अद्भ्यः सम्भूतः पृथिव्येन चाच विश्वकर्मणः समवर्ततादि तस्य त्वष्टा विदध्रौपमेते तत्पुरुषस्य विश्वमाजानमग्रे मेधाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य देरा परिजानन्ति योनिम् महिषीणाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपते यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो ऋचाय ब्राह्मणे ऋचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे तेश्च ते लक्ष्मेश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनो व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छयोरावृणेमहे गातुम् यज्ञाय गातुम् यज्ञवकरे दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्ति
ॐ सहना भवतु
सहनो भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तम विद्विषामहै ॐ शान्ति शान्ति शान्ति
ब्रह्ममेतुमान्
ब्रह्ममेव मधुमेतुमान् यास्ते सोम रजावत्सो विशो अहम् दुष्वप्नहन्तुरुष्यः यास्ते सोम प्राणागुस्तान् जुहोमि त्रिसुपर्णमयाचितम् ब्राह्मणाय दद्यात् ब्रह्महत्याम् वा एते घ्नन्ति ये ब्राह्मणा त्रिसुपर्णम् पठन्ति ते सोमम् प्राप्नुवन्ति आसहस्रात् पङ्क्तिम् पुनन्ति ॐ ब्रह्ममेधया मधुमेधया ब्रह्ममेव मधुमेधया अद्यानो देवसवितः प्रजावत्साभिसौभगम् परा दुःस्वप्नियगुम् सुव विश्वानि देवसवितद्धुरितानि परा सुव यद्भद्रम् तन्महाशुभः मधुवाता ऋता यते मधुक्षरन्ति सिन्धवः मार्देन सन्तोषदेः मधुनक्तमुतोषसि मधुमत्पार्थिवगुम्रजः मधुद्यौरस्तु नः पिता मधुमान्नो वनस्पतिर्मधुमागुम् अस्तु सूर्यः माद्वेर्गावो भवन्तु नः य इमम् त्रिषु पर्णमयाचितम् ब्राह्मणाय दद्यात् भ्रूणहत्याम् वा एते घ्नन्ति ये ब्राह्मणा त्रिषु पर्णम् पठन्ति ते सोमम् प्राप्नुवन्ति आसहस्रात् पङ्क्तिम् पुनन्ति ॐ ब्रह्ममेधवा मधुमेधवा ब्रह्ममेव मधुमेधवा ब्रह्मा देवानाम् पदवी कवीनाम् ऋषिर्विप्राण महिषो मृगानाम् सेनो रुद्राणागुस्सदितिर्वनानागुम् सोम पवित्रमत्येति मे भन्न हगुंस शुचि सद्वसुरन्तरिक्षस नोता वेदिषदति दुरो न सत् न षद्वर सदृत सद्योम सदब्जा गोजारुतजा अद्विजा ऋतम् बृहत् रुचेत्वा रुचेत्वा समिच्छ्रवन्ति सरितो न देनाः
अन्तर्हृदा मनसा पूयमानाः कृतस्य दारा अभि चाकषीमि हिरण्ययो वेदसो मध्य आसाम् तस्मिन् सुपर्णो मधुकृत्तुलायि भजन्नास्ति मधुदेवताभ्यः तस्या सते हरयः सप्त तीरे सदाम् दुहाना अमृतस्य धारा य इदम् त्रिसुपर्णमयाचितम् ब्राह्मणाय दद्यात् धीरहत्याम् वा एते घ्नन्ति ये ब्राह्मणास्त्रिसुपर्णम् पठन्ति ते सोमम् प्राप्नुवन्ति आसहस्रात् पङ्क्तिम् पुनन्ति स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महेशाः नो ब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः